नमस्सर्वेभ्यः. अद्य प्रौढमनोरमायाः अच्सन्धिप्रकरणे चतुर्थः पाठः फेब्रवरी मासस्य पञ्चदशः दिनाङ्कः. येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. ध्यायं ध्यायं परं ब्रह्म स्मारं स्मारं गुरोर्गिरः सिद्धान्तकौमुदी व्याख्यां कुर्मः प्रौढमनोरमाम्. आदौ संज्ञाप्रकरणं किञ्चित् पुनरावर्त्य अग्रे सरामः. उपदेशे अजनुनासिक इत् यद्यप्यत्र उपजीव्यत्वात् अनुनासिकसंज्ञा प्रथमं वक्तुमुचिता तथापि नासिकाम् अनुगतः इति योगाश्रयणेनैव गतार्थत्वात् अनुनासिकसंज्ञासूत्रं मन्दप्रयोजनम् इति ध्वनयितुं नेहोपन्यस्तम्. उपदेशे किम् अभ्र आ अपः यद्यपिह ञः इत्यत्र इव विधानसामर्थ्यात् न इत्वम् इति सुवचम्. तथापि उत्तरार्थम् अवश्यं कर्तव्यम् उपदेशग्रहणम् स्पष्टप्रतिपत्तये इहैव कृतम्. अच् किम् मनिनो मकारस्य माभूत् प्रतिज्ञायते इति प्रतिज्ञा. आतश्चोपसर्गे इति कर्मणि अङ् प्रतिज्ञा आनुनासिक्यम् येषाम् इति विग्रहः. एवञ्च प्रतिज्ञा समधिगम्ये प्रतिज्ञाशब्दस्य लक्षणा इति क्लिष्टम् व्याख्यानम् नाश्रयणीयम्. पाणिनिपद्यम् व्याकरणम् इत्यादिषु विव लक्षणाम् विनैव निर्वाहात्. यद्यपि सूत्रकारकतः अनुनासिकपाठः इदानीम् परिभ्रष्टः तथापि वृत्तिकारादिव्यवहारबलेन यथा कार्यम् प्राक् स्थितः इत्यनुमीयते इति भावः. ननु रलयोरिति न्यूनम् तकारस्यापि मध्यगतत्वाद् इत्यत आह प्रत्याहारेष्विति व्यवह्रियन्ते इति प्रत्याह्रियन्ते संक्षिप्यन्ते वर्णाः यत्र इति बाहुलकाद् अधिकरणे घञ्. यद्यपि योगमात्रम् अकारादिसंज्ञासु अतिप्रसक्तम् तथापि योगरूढिः इति भावः. प्रत्याहाराश्च एकचत्वारिंशदिति प्राञ्चः. चतुर्दशसूत्रीस्थैः हल्भिः इद्भिः कृताः. अष्टाध्याय्याम् व्यवहृताः एकचत्वारिंशत् इति तस्यार्थः. तेन सुप्तिङादीनाम् अरप्रत्याहारस्य द्वयोद्वितीयाः इति वार्तिकस्थ चैप्रत्याहारस्य च आधिक्येऽप्यदोषः. यत्तु न्यमन्ताड्डः इति यमिर्न्यमन्तेष्वनिडेकयिष्यते इति च न्यम् वार्तिककृता व्यवहृतः इत्याहुः तद्रभसाभिधानम्. आद्यस्य उणादिसूत्रत्वात् द्वितीयस्य व्याघ्रभूतिकारिकास्थत्वात् इत्यास्तान् तावत् एष च सङ्ख्यानियमो नातीवोपयुज्यते इत्युपेक्षितः. ऊकालोज् ह्रस्वदीर्घप्लुतः इति समाहारद्वन्द्वः. सौत्रम् पुंस्त्वम् माम् काल इवेति फलितार्थकथनमिदम्. विग्रहस्तु वः कालो यस्य इति बोध्यः. ऊशब्देन स्वोच्चारणकालो लक्ष्यते. आये इति निपाता आद्यदात्ताः इत्यकार उदात्तः. यच्छब्दस्तु फिट् सूत्रेण. अर्वाङ् इति अकारोऽनुदात्तः. सस्यादितः अतन्त्रमिति उपेयिवानित्यत्र उपसर्गः इव अविवक्षितम् इत्यर्थः. ननु तत्र ईयवांसमतिस्थितः इत्यादि प्रयोगदर्शनाद् अविवक्षास्तु. इह तु अविवक्षायाम् प्रमाणम् किम् इति चेत् लक्ष्यदर्शनम् प्रातिशाख्यादिकम् चेति गृहाण. तथा हि येराः इत्यत्र एकारः. तनूनपान् शचीपतिम् इत्यत्र पदपाठे ऊदीतौ च अर्थोदात्तौ इति सकलबहृतप्रसिद्धम्. तनूनपाच्छतीपतिशब्दयोः उभे वनस्पत्यादिषु युगपत् इति पूर्वोत्तरपदयोः आद्युदात्तत्वे कृते अनुदात्तम् पदम् एकवर्जम् इति शेषनिघातः. पूर्वपदभूतयोः तनूशची एतयोरन्तस्य पाक्षिकम् स्वरितत्वम् प्रातिशाख्ये उक्तम्. जात्यवद्वा तथावन्तौ तनूशचीति पूर्वयोः इति तथा स्वरितार्थस्य उदात्तत्वे प्रातिशाख्यमपि एकाक्षरसमावेशे पूर्वयोस्वरितस्वरः तस्योदात्ततरोदात्तादर्धमात्रार्धमेव वा. अनुदात्तः परःशेषः स उदात्तश्रुतिर्न चेत् उदात्तम् वोच्यते किञ्चित् स्वरितम् वाक्षरम् परम् इति. अस्यार्थः पूर्वयोः उदात्तत्व अनुदात्तत्वयोः एकत्र समावेशे सति स्वरितो बोध्यः. तस्य स्वरितस्य स्वतन्त्रोदात्तापेक्षया उदात्ततरा अर्धमात्रा बोध्या इति क्ववोश्वाः इत्यादि ह्रस्वाभिप्रायम् अर्धं वा इति दीर्घाभिप्रायम् अनेनैव ह्रस्वस्यापि संग्रहात् व्यापकत्वात् इदमेव आदर्तव्यम् इति सूचयितुम् एव सारः अनुदात्तः इत्यादि परिशेषसिद्धार्थकथनम् सः शेषः उदात्तश्रुतिः स्यात् किम् अविशेषेण नेत्याः न चेत्यादि उदात्तस्वरितपरम् विहायेत्यर्थः चाकल्योऽप्याः अप्राकृतस्तु यः स्वारः स्वरितोदात्तपूर्वगः उदादायार्धमस्याथ शिष्टम् निघ्नन्ति कम्पितम् इति उदादाय उदात्तम् कृत्वा अर्धह्रस्वशब्देन अर्धमात्रा लक्ष्यते इति हरदत्तादिग्रन्थास्तु मतान्तरपरतया कथञ्चिन्नेयाः क्वेति किमोत् तित्स्वरितम् व इति अनुदात्तम् सर्वमुपादादौ इत्यधिकारादनुदात्तम् अश्वा इति अशेः क्वनि निःस्वरेण आद्युदात्तम् संहितायाम् तु एकादेश उदात्तेनोदात्तः इति ओकारः उदात्तः येरा इति द्वयमपि फिट् सूत्रेण अन्तोदात्तम् एकादेशस्तु पक्षे स्वरितः स्वरितो वानुदात्ते पदादौ इत्युक्तेः अतः परस्मिन् पूर्वविधौ इति दृष्टं गतकक्षायाम् स्थानिवदादेशो अनल्विधौ इत्यनेन स्थानिवद्भावः विधीयते अनल्विधौ अल्विधौ स्थानिवद्भावनिषेधः तथा सति क्वचित् अल्विधौ अपि स्थानिवद्भावः इष्यते उच्यते च अनेन सूत्रेण अतः परस्मिन् पूर्वविधौ इति अल्विध्यर्थमिदम् इत्येव आरभ्यते निश्चितैः अजादेशः अतः नाम अतः स्थाने यः आदेशः परस्मिन् नाम परनिमित्तः परनिमित्तः अजादेशः स्थानिवत् स्यात् स्थानिभूतानतः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये इति सूत्रार्थः उदाहरणं दीयते वव्रश्च वृष्टधातोः लिट्लकारे प्रथमपुरुषैकवचने द्वित्वे कृते व्रश्च व्रश्च अ तत्र सम्प्रसारणं विधीयते सम्प्रसारणे कृते रेफस्य ऋकारः व्रश्च इति अभ्यासस्य नित्यभ्यासस्य उभयेषाम् इत्यनेन सम्प्रसारणम् अभ्यासः नाम पूर्वोऽभ्यासः द्वित्वे कृते पूर्वभागः अभ्याससंज्ञया उच्यते तत्र अभ्यासस्य सम्प्रसारणम् इत्युक्ते रेफस्य स्थाने ऋकारः सम्प्रसारणत्वेन विधीयते इज्ञसम्प्रसारणम् इति वृश्च व्रश्च इति स्थिते वृश्च इति ऋकारस्य उरत् इत्यनेन अकारादेशः स च उरण्डपरः इत्यनेन रेफपरः वृश्च वृश्च अ अन्येषां हलां लोपे व व्रश्च अ इति रूपं सिद्ध्यति अत्र प्रथमस्य वकारस्य पुनः सम्प्रसारणं भवति वा इति प्रश्नः लिटि अभ्यासस्य इत्युच्यते लिट्लकारपरकत्वमस्ति अभ्यासत्वमपि अस्ति अतः वकारस्य सम्प्रसारणं भवतु इति आक्षेपः तथा सति अकारः वकारोत्तरः यः अकारः व इत्यत्र सः ऋकारस्य स्थाने आदेशः अजादेशः परनिमित्तः प्रत्ययनिमित्तः अतः तस्य स्थानिवद्भावेन ऋकारत्वे ऋकारस्य सम्प्रसारणत्वात् न सम्प्रसारणे सम्प्रसारणम् इति निषेधः सो देर् इस् नो सम्प्रसारण इफ् दट् लेटर् इस् इमीडियट्लि फालोड् बै अनदर् सम्प्रसारणम् सो बै स्थानिवद्भाव वि ट्रीट् द अकार एज़् ऋकार विच् वास् ओब्टेन् थ्रू विच् इस् अ सम्प्रसारण विच् वास् ओब्टेन् थ्रू लिट्यभ्यासस्य उभयेषां द सम्प्रसारणविधायकसूत्र सो देर् इस् निषेध आफ् सम्प्रसारण फार् वकार यूसिङ्ग् स्थानिमद्भाव फार् अकार So that is an example of application of Atasparasmin Purvavidho. So the first difference between Atasparasmin Purvavidho and Sthanivadadesho Analvidho is that this is Alvidhi. Sthanivadadeshaha Analvidhaveva, Ayantu Alvidhaveva. Iti Prathamaha Bhedaha. Dvitiyastu Sthanivadadesho Analvidho iti Bhavatideshaha Eva Angikriyate. Sthanini Sati Yadbhavati Tadadeshepi Bhavati. Iti bhavati deshaha sthanini sati yam nabhavati tadadeshe satyapi nabhavati iti abhavati deshaha sthanivadadesho nilvidhau ityatra bhavati deshaha eva svikriyate nai nidhatoho nul pratyaye pare nulaha aka iti adeshaha ni aka tadanim sthanivadbhavena nitvam ashritya vriddhihi kriyate nai aka iti ayam bhavati deshaha kintu sthanivadbhavena vu iti swarupam yadi ashriyate tarhi vu ityasya haladitvat eto evayavaha ityanena ayadeshaha nasyat bhavati deshe angikrite. If we accept abhavati desha in sthanivadadesho analvidhau, then we cannot do ayadesha here. Sthanini sati yanna bhavati. Sthanini nama vu rupe sati yanna bhavati tadadeshepi nabhavati ityukte ayadeshaha nasyat kintu ishyate ayadeshaha ataha sthanivadadesho analvidhau ityatra bhavati deshaha eva svikriyate nmuli sati yad bhavati vruddhihi sa vruddhihi adeshe satyapi bhavati. Even though aka is not nit or nit by itself, we still do vruddhi using bhavati desha. But abhavati desha is not accepted there. In atasparasmin purvavidhau, bhava bhava yoho ubhayoho ati deshaha angi kriyate. We accept both bhavati desha and abhavati desha. So the vavrashta itself is an example of abhavati desha. That is sthanini sati, rukare sati enna bhavati, samprasaranam na bhavati. That is akara deshe krutepi na bhavati. Evam eva ganayati. Gana iti adantaha dhatuhu, nich pratyayaha, gana i. Ato lopaha ityanena akarasya lopaha, gana i. Idanim akarasya upatatvat, ataupadhayaha ityanena vruddhihi praapnoti. Kintu luptasya akarasya sthanivadbhavat, akaraha upadhayam nasti ityataha vruddhihi nivaryate. Ayam abhavati deshaha. Both bhava and abhavati desha, which is accepted in Atasparasmin Purvavidhau. And the third point which was looked at in this was Purvavidhau ityatra kathamarthaha kriyate. Purvasya vidhihi purvavidhihi. Kasmat purvasya. Purvaha is requires an avadhi. Before. So before what? So avadhitva akanshayam prasaktaha trayaha. There are three things which are current, I mean which are relevant in this occasion. There is sthani, nimitta and adesha. Sthaninaha purvat iti vaktum na shakyate sthani nasti adeshena apaharat. Adeshat purvasya athava nimittat purvasya ityukte vyakaranaha iti na siddhyati. Vyakarana shabdat tadadhite tadveda iti an kriyate. Tataha tatra aich iti agamaha kriyate. Tayor vyav achi iti. So ai agamaha. Vaiya iti bhavati. Idani tatra yakaraha. Vi a iti upasargadvayam. Tatra vi ityatra ikarase anadeshena nishpannaha yakaraha. Tasya sthanivadbhavena ikara swarupe. So if we bring in the ikara by sthanivadbhava, because ikara is ach, we will have to do an ayadesha for I. Ikarasya ayadeshaha prapnoti saha nishedhavyaha. Now, if we take the sense as either adeshat purvamityukte yakarat purvaha ikaraha, tasya vithau kartavye sthanivadbhavaha bhavati ityukte ayadesha prasangaha syat. Nimittat purvaha ityukte atra nimittaha akaraha. Vi a. Achipare yan. Ataha nimittaha akaraha. आकारात् पूर्वस्य ऐकारस्य विधौ कर्तव्ये स्थानिवद्भावः भवति इत्यनेन तत्रापि आयादेशप्रसङ्गः स्यात्। नैष्यते आयादेशः। अतः पूर्वत्वेन दृष्टस्य विधौ, पूर्वत्वम् उपलक्षणम्, विद्यमानं सत् व्यावर्तकम्, इदानीं नास्ति, स्थानि एव नास्ति इत्यतः इदानीं तस्मात् पूर्वत्वम् इति वक्तुमपि न शक्यते। किन्तु पूर्वं स्थानिनः अर्थात् पूर्वदशायां स्थानिनः पूर्वत्वम् आसीत् इति कृत्वा तदेव पूर्वत्वेन दृष्टस्य विधौ स्थानिवद्भावः इति अङ्गीक्रियते। अत्र तु यदा स्थानी नाम इकारः अस्ति तदा तस्मात् पूर्वः ऐकारः न दृश्यते, अतः तस्मिन् अर्थे स्वीकृते पूर्वत्वेन दृष्टस्य विधौ स्थानिवद्भावः इत्यर्थे स्वीकृते अत्र आयादेशप्रसक्तिः नास्ति इति अतःपरस्मिन् पूर्वविधौ। Any questions? अग्रिमं सूत्रमस्ति, न पदान्त द्विर्वचन वरे यलोप स्वर सवर्णानुस्वार दीर्घजश्चर विधिषु। स्थानिवद्भाव प्रकरणे तृतीयं सूत्रम्, स्थानिवद्भाव निषेधकं सूत्रम्। सो दिस् इस् अ सूत्र विच् प्रिवेण्ट्स् स्थानिवद्भाव। वी हाव् स्थानिवद्भाव थ्रू टु सूत्रस्, स्थानिवदादेशो नल् विधौ अण्ड् अतःपरस्मिन् पूर्वविधौ। Now this rule sets out to prevent sthanivat bhavam. So na, sthanivat na, kutra padanta dvirvachana vare yalopa swara savarana anuswara dirgha jaschar vidhishu. Eteshu vidhishu sthanivat bhavah na bhavati. Padasya saramavayave dvirvachanadau chakartavye paranimittaha ajadeshaha na sthanivat. So this is anishedha. अतः परस्मिन् पूर्वविधौ, अतः परनिमित्तः अजादेशः स्थानिवत् न भवति। कदा? पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये। पदान्त इत्यस्य पदस्य चरमावयवे इत्यर्थः स्वीकृतः। पदस्य चरमावयवे कर्तव्ये, वेन् वाट् यु आर् ट्रैङ्ग् टु डू, दट् इस् अन् आदेश आर् वाट् एवर् द कार्य दट् यु आर् ट्रैङ्ग् टु डू विल् bring in the charamavayava, the final, the last part, avayava, of a pada. Or dvirvachanadau cha kartavye. Or when you are trying to do dvirvachana, which is dvitva, yalopa, swara, etc. Paranimittaha ajadeshaha nasthanivat. Katham prasaktihi, why is this sutra brought in here? Sudhyavasyaha ityasti. सुधी उपास्यः, यणादेशे कृते सुध य उपास्यः, ततः अनचि च इत्यनेन धकारस्य द्वित्वं कर्तुम् इष्यते। तत्र यकारस्य स्थानिवद्भावेन यदि इकारत्वं सम्पद्यते तर्हि अनचि इति निषेधात् द्वित्वं न भवति, अतः अत्र स्थानिवद्भावः निषेद्धव्यः। कथं निषिध्यते? द्विर्वचने कर्तव्ये, अर्थात् द्वित्वे कर्तव्ये स्थानिवद्भावः नास्ति इति उक्तत्वात् शुद्धुपास्यः इत्यत्र द्वित्वं भवति इति प्रसङ्गः। दट् इस् वै द सूत्र इस् ब्राट् इन् इन् द सिद्धान्तकौमुदी टु जस्टिफै द्वित्व इन् शुद्धुपास्यः। नौ इन् प्रौढमनोरमा द मेजर् इण्टेण्ट् इस् टु अण्डर्स्टाण्ड् द सूत्र कम्प्लीट्लि। So in Siddhanta Kaumudi, he does not go into details or examples of the sutra. He just brings in to say dvirvachane dvitvam nasti, ataha dvirvachane sthanivadbhavah nasti, ataha dvitvam bhavati. Avadeva uchyate tatra. Now the attempt is to understand the sutra completely with examples for each. So first he takes up padasya saramavayave kartavye, padanta ityasti. पदान्तस्य विधौ कर्तव्ये स्थानिवद्भावः न इति वक्तुं शक्यते। यु केन् से वेन् यु आर् ट्रैङ्ग् टु डू अ कार्य फार् पदान्त देर् इस् नो स्थानिवद्भाव, किन्तु तथा नोच्यते। पदस्य चरमावयवे कर्तव्ये स्थानिवद्भावः नास्ति। किमर्थम् एवमर्थः? விருக்ஷம் வேதீதி விருக்ஷவீகி வாதீதி விருக்ஷவாக தமாச்சஷ்டே விருக்ஷவு வி இதி தாதுஹு கதி வியாப்தி பிரஜனன காந்தியசன காதனேஷு ததா வா கதி கந்தனயோஹு. In both cases we take the gati. Vriksham veti or vati, that which moves a tree or causes a tree to move, shake, etc. So like a wind, okay, whatever. So now we have vriksha vi or vriksha va, okay, the vi or va dhatu. Tasmat nich pratyaha kriyate tatkaroti tadachaste pratiparika dhatvarthe bahulam ishtavaccha iti vastikam drishyate. So you have it in the namadhatu or the sanadhyantas. So vriksham vetiti vrikshavihi vatiti vrikshavaha. So that is the pratipadika where you have quip. On that we have the nich. Pratipadika dhatvarthe bahulam ishtavaccha. So this is the one which gives nich, and it also says ishtavat. Ishta is a pratyaya in tadhitas. You have tamabhishtanav. Adishayane tamabhishtanav. So the ishta. So there are several karyas which are given for ishtan. So the same karyas will also apply here is what it says. So one of those is called tilopa. The t will be deleted and followed by ishta. So ishtavad bhavat tilopaha. Vi ityatra ikarasya va ityatra akarasya va. Lopaha bhavati vrikshavu. Ityasti. Vrikshavu e. Tasmat. Which iti pratyaha kriyate. So this is again another kridanta. Anyebhyopi drishyante ityanena. Ikarasya, nitaha ikarasya lopaha, neraniti iti. Vrikshavu v ityasti. Atra lopavyorvali ityanena prathama vakarasya lopaha prapnoti. Okay. So when you have the first vakara, vadipare vakarasya lopaha syat. So this vakara has to be deleted by lopo vyorvali. To prevent this deletion, we do not want it to be deleted. So to prevent this deletion, we bring in the nich by sthanivadbhava. Paraninittaha, nama vich pratyaya nimittaha, ajadeshaha, ikarasya, loparupaha adeshaha. The lopa of nich, which is ikara, sthanivadsyat, sthanibhutad ataha, nama ikarat, purvatvena drishtasya. Vakarasya vidhau nama lope kartavye. So when we are trying to do vakara lopa by lopo vyorvali, we bring in ikara by sthanivadbhava and prevent vakara lopa. Okay. So ayam vakaraha lupyate. The v of which will be deleted by vera praktasya. It is an aprakta praktaya and there is vakara, so it will be deleted. Now this vakara, deletion of this vakara is prevented by sthanivadbhava. Nichaha nama ikarasya luptasya ikarasya sthanivadbhavena vakarasya lopaha varyate. Now if we say iha lopo vyoho iti valopo na sthanivatvat rikshavu v iti sthite lopo vyorvali ityanena prathama vakarasya lopaha na bhavati sthanivadbhavena. Nacha na padanta iti nishedhaha. Iha vidheyasya lopasya pada anavayavatvat. Says, na padanta dvirvachana iti nishedhaha na bhavati. Kimartham na bhavati? Padasya charamavayave kartavye sthanivadbhava nishedhaha. When the karya which we do resides in the charamavaya of a pada. Okay. Now, if we delete this vakara, the deletion will not create an avayava of the pada. Say if you are replacing something, if the case were such that you are replacing this vakara with something, then it would have been padasya charamavayave kartavye. This is a pada. Okay, how is this a pada? He tells immediately. So idam padam. So padasya charamavayave kartavye. Yadi kriyamanena karyena padasya charamavayavaha utpadyate tada sthanivadbhava nishedhaha. Okay. So if the karya which you are doing creates the ending of a pada, then we say sthanivadbhava nishedha. Atratu lopaha kartum ichyate. Okay. So lopa, the adesha which we do, which is lopa, is not considered an avayava of the pada. Okay. So the karya does not become the charamavayava of a pada. therefore there is no nishedha by napadanta. Napadan nacha napadanta iti nishedha iha vidheyasya lopasya pada anavayavatvat. Padantasya sthane vidhau na iti vyakhyane tu na idam siddhet. If napadanta dvirvachana ityatra padantasya sthane vidhau sthanivadbhavahana iti yadi vyakhyasyate tadatu atra valopa nishedha na siddhyati. Kimartham padantasya sthane eva yam vidhihi. The lopa is padantasya sthane vidhihi. Okay, because vrikshavu is a pada, the padanta is being deleted. Ataha padantasya sthane vidhihi. Kintu lopaha padasya avayavaha na, padasya saramavayavaha nasti. Ataha padantasya sthane vidhau na iti vyakhyane tu nedam siddhet. Subantan nich iti haradatta atimate antarvarti supa padatvat. So it is a sup because of the antarvarti pada. While doing the nich, he says it is subantat nijutpatihi. Vrikshavi vrikshava. So there is actually a sup here. Vriksham veti tam achashte. So it should be vrikshavi or vrikshava, am and nich. The am is deleted by subabdhatu pratiparikayohu. So because of that pratyaya, this is a subanta and a pada. And vrikshavu is at the end of a pada. So padantasya sthane kartavye ityukte atra sthanivadbhava nishedha bhavati. Sthanivadbhavah na bhavati. Padasya saramavayave kartavye iti vyakhyane tu sthanivadbhava nishedha nasti. We require the sthanivadbhava here. That is why he brings in padasya saramavayave kartavye sthanivadbhava nishedha. Is this clear? Subantan nich iti haradatta animate antarvarti supa padatvat. Nacha ishtavat ityadishtena nichi bhatvena padatva badhaha nehe luptatvat. Nam ishtavat iti upchate. Pratipadikant dhantvarthe bahulam ishtavatcha. So ishtavat karyane bhavanti. Now, when followed by ishtan pratyaya, bhasamya is also given. Okay. Ishtan pratyaya pare bhatvam bhavati. Yachibham, yakaradishu, ajadishu, kapratyavadishu, bhasamya bhavati. So, the purvam bhasamyam. The bha and pada are mutually opposing to each other. If you remember the subanta prakrana which we did. So, wherever it is haladi, it is padasamya. Wherever it is ajadi, it is bhasamya. So, bha and pada are mutually opposing each other. They fall under the adhikara. Akadarad eka samya. So there can be only one at a time. So a particle can either be pada or be bha. Okay, so that is what it says. So he says, nacha ishtavat ityadishtena nichi bhatvena padatva bhadaha. So because it says now ishtavat, so when followed by ishtan pratyaya, the particle, the anga becomes bha. So here also it should be bha. If it is bha, then it will not be a pada. So if it is not a pada, question of padanta does not arise, is what is the akshepa. Ishtavat iti adishtena nichi bhatvena, nichi bhatvena padatva vadhaha na. So that argument will not hold good. Why? Nehe luktatvat. The ni has been deleted. Okay. Since ni has been deleted, you cannot say there is bhatva. Nacha pratyaya lakshanam varnashrayatvat. So wherever, even if a pratyaya is deleted, we do the karya. Even if you don't hear the sup, we say subanta. Pratyaya lope pratyaya lakshanam. So why don't we use pratyaya lope pratyaya lakshanam? Nacha pratyaya lakshanam varnashrayatvat. Varnashraye nasti pratyaya lakshanam. So there is no pratyaya lakshana if we depend on the varna, that is the letter. Atra ajadikve, we depend on the ach, one letter here to bring in the bhasamya. So in such cases, varnashraye pratyaya lakshanam nasti ityataha, the ni has been deleted and therefore we cannot have the bhasamya. So if there is no bhasamya, then we can have padasamya and it is padanta. Varnashraye nasti pratyaya lakshanam iti paribhasha. So the whole argument is, first thing is vrikshavu a pada. Vrikshavu ityasya padatvam asti va iti prathamah prashnaha. Padatvam asti ityuchyate. Katham padatvam subantanich iti haradattadimate antarvarti supa padatvat. Subantat nich pratyaha kriyate. Sacha pratyaha lupyate. Subodhatu pratiparikayoho ityanena lupyate. Tathapi pratyalakshanena padatvam asti. So vrikshavu is a pada. Even though it says ishtavata ityanena bhasamya, if it is nich pratyaya, then there is bhasamya which overrules padasamya. Hintu ni pratyaha luptaha, the ni has been deleted, and we cannot use pratyalakshana for nich because it is varnashraya. For sup, we can use pratyalakshana because we are not depending on a particular letter in sup. We just want the sup to be there for it to be subanta. Kintu ni ityatra yadi bhasamya kartavya tarhi ajaditvam apekshyate. It has to be an ajadi pratyaya. Since it is a varnashraya, there is no pratyaya lakshana for nich, which means that rikshavu is a pada. Once it is a pada, the question is, will we have sthanivadbhava or not? Padante sthanivadbhava nasti ityuchyate. Padantasya sthane vidhau sthanivadbhavahana iti yadi vyakhyasyate, tarhi padantasya vakarasya sthane lopaha kartumishyate ityataha sthanivadbhava nishedhaha syat. Yadi sthanivadbhava nishedhaha, tarhi vakaraha lupyeta. So we do not want the vakara to be deleted. Ateva kim uchyate, padasya charamavayave kartavye sthanivadbhava nishedhaha. So the karya which we do, if it brings in the charamavayava of a pada, then there is no sthanivadbhava. Atratu lopaha kriyate. Lopena padasya avayavaha na kriyate. So the lopa is not an avayava of the pada. Therefore, there is no sthanivadbhava nishedha. Na padanta iti sutram na pravartate. Atasparasmin purva vidhau ityanena nichaha sthanivadbhavaha bhavati. Tasmat lopovyorvali ityanena lopaha nas. So padasya charamavayave kartavye sthanivadbhavaha na. Dhirvachanadau cha. So padasya charamavayave dhirvachanadau cha kartavye sthanivadbhava nishedhaha ichyutte. Yalopadayaha adishabda grahyaha. Napadanta dhirvachana vare yalopasvarasavaranusvara ityasti. Dhirvachanadau kartavye ichyutte. Dhirvachane, yalope, svare, savarane, anusvare, dirghe, chari, chakartavye, sthanivadbhavah nasti. So why did he leave out the vare there? Vare iti tu, vare yaha ajadeshaha, saha nasthanivat iti vyakcheyam. So vare is a saptamyanta nipatana. Okay. So, women. Saha vivaksha abhavepi nipatana dvandvaha saptam yaluk. It is saptami, vare, itha rame, iti bhavati, tatha vare iti. Vare pare, yaha ajadeshaha. So the ajadesha when followed by vare, saha nasthanivat iti vyakhyayate. So why such a vyakhyana? We will see in the example. So it is not vare kartavye. So we are not, it is not sthanivadbhava nishedha when we do the vara pratyaya. So it is sthanivadbhava nishedha for an adesha when followed by the vara pratyaya. Okay, so there is a slight difference there. So sahavivaksha abhavepi. So sarvatra dhirvachane kartavye yalope kartavye ityadi uchyate. Tatra sarvatra sahavivaksha asti. When we are doing a dvandva, the most important thing is sahavivaksha. All of them, all the particles of dvandva, should undergo the same karya. Saha vivaksha, that is, should take part in the karya together. Say for example, when you say Rama Lakshmanau Gachataha, Rama also goes and Lakshmana also goes. So together, there is saha vivaksha of both for the kriya, that is saha anvaya, anvaya together. In the same way, each of them relate to whatever is there. But here, you are saying dhirvachane kartavye sthanivadbhavah nasti, vare pare yaha ajadeshaha tatra sthanivadbhavah nasti. There are two different kinds of anvaya which we are doing here. சஹ விவக்ஷா அபாவேபி நிபாதனா த்வந்த்வஹ. சோ நிபாதனா இஸ் எ சித்த பிரக்ரியா. ஓகே, சோ இட் இஸ் ஜஸ்ட் பாணினி நிர்தேசஸ்ய பிரமாண பூதத்வாத். ஓகே, சோ நிபாதனா த்வந்த்வஹ சப்தம் யலுக்ச. சோ வரே இத்யத்ர பிரத்யேக ஸ்ரூயதே அலுக் இத்யுச்யதே, சப்தமீ பிரத்யஸ்ய அலுக் லுகபாவஹ உபயம் நிபாத்யதே. அத உதாஹரணானி. நவ் ஹி ஸ்டார்ட்ஸ் வித் அன் எக்ஸாம்பிள் ஃபார் ஈச் ஆஃப் தீஸ் பதாந்த த்விர்வசன இத்யாதிஷு ஏகைகமபி பிரத்யேகம் உதாஹரணானி வீயந்தே. பதாந்தே காணி சந்தி கௌஸ்தஹ. சோ சந்தி இத்யத்ர கதம் சந்தி இதி காணி இதி பவது. சோ சந்தி அசுதாதோ லட்லகாரஹ. சோ தஸ்ய தி பிரத்யய ஜி பிரத்யய தி தஸ் ஜி பஹுவச்சனே பிரதம பஹுவச்சனே ஜி பிரத்யய தஸ்ய அந்தி இதி ஆதேஷ ஜோந்தஹ இத்யனேன. சோ அசு அந்தி, தென் யூ ஹாவ் ஷப் அண்ட் வி டிலீட் த ஷப். சோ அதிப்ரபிரதிப்தே ஷபஹ இத்யனேன. So, asu anti. So, there is a typing error here. It is not ansi, it is anti. Asu anti it is thite. Shnasor allopaha ityanena akaraha lukyate. So, the akara is deleted by shnasoho. Shna asoho. So, it is asudhatu. So, the akara is deleted. So, you have santi. Kani santi. Just one note. The next everything, all udaharana is fully prakriya. Okay, so you might be familiar with some of the prakriyas, you might not be familiar with some. So don't be put off by the prakriya. If you do not know the prakriya, that is if you are not familiar with kriya pada prakriya, forget everything, only concentrate on the step where there is adesha and sthanivadbhava. Because we are discussing only the sthanivadbhava, we do the major part in all of these is there is an ajadesha and is there sthanivadbhava for that or not. It is sthanivadbhava nishedha for an ajadesha. So the only part which we will need to concentrate is the ajadesha, where there is an adesha for an ach, and then the question of what would happen if there is sthanivadbhava and how do we prevent the sthanivadbhava. That is all matters in this context. It is good if you understand the full prakriya, but if you do not, if you are not already familiar with it, don't worry too much. This class is not to learn prakriya. Okay? It is assuming you know the prakriya. Anyway, this is to understand the Shastrartha, that is, what is the argument there. So, for now, let's not go into detail of the prakriya. I have given the prakriya in detail because at least the samskara will help. So, we will look at the prakriyas in a different class separately. Now, it is only the argument. So, kani santi, asu anti itisthite, shnasor allopaha ityanena akaraha lupyate. Akara is deleted. Which is an adesha, ajadesha. So, paranimittaha, sarvadhatuka pratyayanimittaha ajadeshaha. The condition here is sarvadhatuke pare. So, therefore, the asu, akara being deleted, ajadeshaha, akarasya loparupaha adeshaha, sthanivad bhavati, it behaves like akara, sthanibhutadataha, purvatvena drishtasya, akarat purvatvena sthitasya, ikarasya yanadeshe kartavye. So now, since there is akara, if we bring in the akara by sthanivadbhava, there has to be yan for kani. Ikarasya yanadeshah prapnoti. Ataha sthanivadbhava nishedha kartavyaha. So sthanivadbhavena akara mashritya, iko yanasi iti yan syat. So that is the akshepa, that if there is sthanivadbhava, there has to be yanadeshah for the ikara. பதஸ்ய சரமாவயவே கர்த்தவ்யே ஸ்தானிவத்பாவஹ நாஸ்தி இதி உக்தம். இஃப் வி டு யணாதேஷ, தட் யண் வில் பி த சரமாவயவ ஆஃப் த பத. ரைட், காணி இதி பதம் யணாதேஷே கிருதே யகாரஹ பதஸ்ய சரமாவயவஹ, இட் வில் பி த எண்டிங் ஆஃப் த பத. சோ தஸ்மின் கர்த்தவ்யே ஸ்தானிவத்பாவஹ நாஸ்தி ந பதாந்த இதி உக்தத்வாத். சோ தேர்ஃபோர் தேர் இஸ் நோ ஸ்தானிவத்பாவ அண்ட் தேர் இஸ் நோ யணாதேஷ. So now you should be able to appreciate the difference between this and the vrikshavu. So vrikshavu ityatra lope krute padasya saramavayavaha na sampadyate. Since lopa is not an avayava of the pada, चरमावयवे कर्तव्ये अत्र तु यणादेशः पदस्य चरमावयवः भविष्यति अतः स्थानिवद्भाव निषेधः. सो दट इज द डिफरेंस बिटवीन इंटरप्रेटिंग इट एज पदान्तस्य स्थाने विधौ एंड पदस्य चरमावयवे कर्तव्ये. सो पदान्ते स्थानिवद्भावः नास्ति, कानि सन्ति. सो एवमेव कौ स्तः, इट इज द सेम. कौ स्तः इत्यत्र अस् तः इत्यस्ति. सो श्नसोरल्लोपः इति अल्लोपः. सो लुप्तमकारं स्थानिवद्भावेन आश्रित्य आवादेशः कर्तव्यः. इफ देर इज स्थानिवद्भाव देन देर इज प्रसक्ति ऑफ आवादेश फॉर कौ विच इज प्रिवेंटेड. न पदान्त इति निषेधात् स्थानिवद्भावः नास्ति. सो हियर आल्सो काव आव इति आदेशे कृते सः पदस्य चरमावयवः भविष्यति. सो दट विल बी द एंडिंग ऑफ अ पद. सो इन सच केसेस देर इज नो स्थानिवद्भाव, देयरफॉर देर इज नो आवादेश. द्विर्वचने सुध्युपास्यः, वी हैव ऑलरेडी सीन. सुधी उपास्यः यणादेशे कृते तस्य स्थानिवद्भावेन ईकारत्वमाश्रित्य अनचि इति द्विष्वनिषेधः स्यात्. सो इफ वी डू स्थानिवद्भाव फॉर द यण् देन देर विल बी नो द्वित्व बिकॉज द द्वित्व सूत्र सेज अनचि अचिपरे न. सो न पदान्त द्विर्वचन, द्विर्वचने कर्तव्ये स्थानिवद्भावः नास्ति. When we are trying to do dvitva, there is no sthanivadbhava. Therefore, dvitva happens. We have sudhyupasyaha, dhakaradvayam shruyate. Vare, yayavaraha, yashtayangaha iti varach, atolopaha. Sacha atolopa iti cha, iti alope kartavye na sthanivat. You have the ya dhatu, yang pratyaha kriyate. Now there is the akara is deleted by atolopaha. So this is where we are. Yayayu vara atolopaha ardhadhatukopadeshakale yad akarantam tasya lopahasya ardhadhatuke pratyaye. So if it is adanta, hraswakaranta when followed by an ardhadhatuka pratyaya, the akara will be deleted. So atolopaha itenena akarasya lopaha. Yayayu vara लोपो व्योर्वलि इत्यनेन यकारस्य लोपः. सो यु वु वकारः वल्, सो तस्मिन् परे लोपः, द यकार इज डिलीटेड. या या वर. नौ द क्वेश्चन इज कैन वी डिलीट दिस आकार. आकारः, आकारस्य लोपः कर्तुं शक्यते वा इति प्रश्नः. दिस इज आतोलोप इति च इत्यनेन if we bringing the akara by sthanivadbhava, the akara which was deleted atolopaha ittenena paranimittaha ajadeshaha nama akarasya lopaha sthanivatsyat sthanibhutadatah purvatvena drishtasya nama akarasya lope kartavye. If we bring in the there will be atolopa iticha ittenena lopaha syat because the atolopa iticha depends on nit pratyaya. So this yang is nit. So if we bring in the akara, akara is a part of this nit yang. Okay, so if we bring in the akara, since it is nit, there will be lopa for akara. Atolopa iti cha ittenena allopaha syat sthanivad bhave sati atolopa iti cha iti allopaha syat. Na padanta dvirvachana vare. So vare pare, vara pratyaye pare yaha ajadeshaha. So that is how we interpreted it, right? Vare kartavye sthanivadbhavaha iti na, varach pratyaye pare yaha ajadeshaha, akarasya lopadeshaha, saha sthanivad na bhavati, sthanivadbhava nishedhaha. So if there is sthanivadbhava, we will have to delete this akara, okay, which is not desired. Therefore, there is no sthanivadbhava when followed by वरे न पदांत द्विर्वचन वरे वरे परे स्थानिवद्भाव निषेधात् अत्र आकारस्य लोपः न भवति. सो अतो लोपः इज द अकार विच वी आर ट्राइंग टू ब्रिंग इन बाय स्थानिवद्भाव विच इज प्रिवेंटेड बिकॉज ऑफ दिस. सो न पदांत द्विर्वचन वरे यलोप यलोपे याति ही यातेर यंगंतात कतिचे अतोलोपहा यलोपहा अलोपस्य स्थानिवत्वाद आतोलोपहा यलोपहा. The same याधातु, the same यंग प्रत्यय. Okay. So again we have द्वित्वा या 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 is just the. Now we add a different कृत प्रत्यय. Previously we added वरच. Now it is कतिच. कतिच कतौच संज्ञायाम् इत्यनेन कतिच प्रत्ययः भवति. यायाय ति इत्यस्ति. सो अतो लोपः सेम थिंग द अकार इज डिलेटेड एंड देन देयर इज लोप ऑफ योर वली इत्यनेन अयम् यकारः लुप्यते. नौ वी हैव स्थानिवद्भाव ऑफ अकार. द सेम थिंग वी सेड अकारः परनिमित्तः अजादेशः स्थानिवत् स्यात् इत्यनेन अकारस्य स्थानिवद्भावे सति आतोलोप इति च इत्यनेन आलोपः भवति. वरे परे स्थानिवद्भाव निषेधः. द स्थानिवद्भाव इज प्रिवेंटेड ओनली वेन फॉलोड बाय वरे. सो हियर इट इज नॉट वरच प्रत्यय देयरफॉर स्थानिवद्भाव इज नॉट प्रिवेंटेड विच मीन्स देर इज आकार लोप आतोलोप इति च. दिस इज वॉट वी प्रिवेंटेड इन द प्रीवियस केस. यायावरः इत्यत्र आतोलोपः न भवति अत्र तु भवति बिकॉज वी ब्रिंग इन द अकार बाय स्थानिवद्भाव. There is a, depending on that a, we delete the akara. Ato lopa iti cha ityanena akara lopa bhavati. So, yayu ti. Now, this yakara is to be deleted again. Lopo vyorvali ityanena ayam yakara ha. Asya yakara se lopa karaniya ha. If we bring in the akara by sthani madhava or the akara. Okay. So, if यलोपे कर्तव्य यदि स्थानिवद्भाव क्रियते अकार आकारो व स्थानिवद्भाव आनीयते तर्हि यलोपो न स्यात्. लोपो व्योर्वलि वलि परे यकार लोप क्रियते यदि स्थानिवद्भाव आश्रियते तर्हि यलोपो न स्यात्. न पदांत द्विर्वचन वरे यलोप यलोपे कर्तव्य स्थानिवद्भाव नास्ति. सो इन बोथ केसेस इन द फर्स्ट केस वेर वी डू लोपो व्योर्वलि एंड ऑल्सो द सेकेंड केस यलोपे कर्तव्य स्थानिवद्भाव नास्ति. सो व्हेन वी आर ट्राइंग टू डू यलोप वी कैन नॉट ब्रिंग इन द अकार. सो अत्र अकारस्य स्थानिवद्भावे लोपः न स्यात् अत्रापि लोपः न स्यात्. यलोपे कर्तव्ये स्थानिवद्भाव निषेधात् लोपः भवति. सो वी डिलीट बोथ यकारास् याति यातिः इति रूपम् बोथ यकारास् आर डिलीटेड. So, lopo vyorvali ityanena karasya lope yati iti rupam. So, here in this prakriya you can see both sthanivadbhava and sthanivadbhava nishedha. Alope kartavye, ato lope iti cha iti akara lope kartavye sthanivadbhava bhavati. So, we use sthanivadbhava. Only if there is sthanivadbhava we can delete the akara. Okay. Therefore, आतोलोप इति च इति आलोपे कर्तव्ये स्थानिवद्भावः भवति यलोपे कर्तव्ये स्थानिवद्भावः नास्ति. स्थानिवद्भाव इज अ केस टू केस. यू कैन नॉट से याति ही इत्यत्र स्थानिवद्भावः न. दट इज नॉट करेक्ट एट ऑल. एट ईच स्टेप फॉर ईच कार्य यू हैव टू चेक इफ वी रिक्वायर स्थानिवद्भाव. यू हैव टू चेक इफ वी कैन डू स्थानिवद्भाव और नॉट. ओके. सो इट इज द सेम प्रक्रिया द सेम अकार. In one case, it is sthanivat. In other case, it is not sthanivat. So, whether sthanivat bhavati va nava iti tu, vidhim avalambe bhavati. What is the karya which we are trying to do? Yalope kartavye sthanivat bhavaha na bhavati. Alope kartavye tu sthanivat bhavaha bhavati. Nacha punar alopashyankyaha, chinolungnyayena atolopasya asiddhatvat sthanivat bhavatcha. So there is another question he brings here. So you have ya ti. So can we do atolopa iticha again? Okay, it is lakshana bheda. It is not the same lakshya. Atratu dvitiya akarasya lopaha. Now that we have ya, now can we bring in sthanivad bhava and delete this akara also? Punaha ato lopa iti cha iti bhavati va iti prashnaha. Nacha punaha alopaha shankyaha na bhavati. Kimartham chinolungyayena ato lopasya asiddhatvat sthanivad bhavat cha. So he says there are two yuktis which he uses to prevent it. Okay, one is he says sthanivad bhavat. That is easy to understand. The previous akara which was deleted, we bring in by sthanivad bhava. Atolopaitita ityanena yaha akara haluptaha, saha punaha sthanivad bhavena aniyate. So if it is brought in by sthanivad bhava, then there is no direct parakatva. Vyavahitatvat, you bring in both the akara and the akara. Okay. So now this akara is separated from the nimitta by something in between, which means that alopa will not happen. That is sthanivad bhava. He gives another yukti, chinolung nyayena atolopasya asiddhatvat. He says the lopa which was done, atolopa iticha iti yaha alopaha kritaha, saha asiddhaha. Vai chinolung nyayena. So there is this chinoluk. So there is pach dhatu, pachati, pach dhatu, karmani lung lakaraha. Pachyate iti karmani lat, tasmin karmani lung lakaraha. The form is apachi. Okay? It was cooked. Ityarthaha. Maya apachi. It was cooked by me. Iti karmani prayoge lung lakaraha. Now apachi ta iti pratyaha. Tiptasthi tiptasthami vasmas ta. Atmanepare prathama purushaikavachane ta iti prastyaha. So apachi ta iti sthite chino luk ittinena luk bhavati. So there is chin here. So let's forget what is chin for now. It is in lung lakara we have the chin. So chini krite chino luk ittinena asya ta ityasya luk bhavati. Okay, the ta is deleted and the form will be apachi. Now when you do some other pratyaya like a tadhita, there is a taram. Okay. Apachi taram iti sthete, punaha ta ityasya lopaha bhavati va iti prashnaha. Can we apply chinoluk again and delete this ta? Here we deleted a ta by chinoluk. Now it's a different pratyaya. So on this tinganta, we add a tadhita. So apachi taram iti sthete, punaha ta lopaha bhavati va iti prashnaha. So na bhavati iti uttaram apachi taram ityeva rupam punaha talopaha na bhavati kuto na bhavati iti prashnaha. Why can we not do it again? It is not the same lakshya. It is a different lakshya. Initially we deleted the ta of thing pratyaya. Now this is a ta of a different pratyaya, atadhita pratyaya. So why should we not delete it? Is it prashne asiddhavad atra bhat ityanena Purvam kritasya talopasya asiddhatvam. So there is a sutra, asiddhavad atra abhat. So from here, 6422, till the end of the pada, till the end of 6-4, we have something called asiddhavat. So this is the second asiddhadikara. The famous asiddha we have is purvatra asiddham in the tripadi. That is fine. There is one more here, asiddhavat atra. It is a limited asiddhatva. So between in this range from 6422 till the end 64175 or something. Okay. Say so till the end of the pada. So kyuchyate asiddhavadatra. Once you apply one sutra out of this, asmin adhikare ekasmin sutre pravritte. Tasminneva adhikare aparasmin sutre pravrtayitavye. If we try to do apply another sutra within the same adhikara, prathamam sutram asiddhavad bhavati. The first one will be asiddha. So it is two sutras within the same adhikara. Atra abhat ityadhikare. Abhadhika abhiyadhikare yaha yat sutram asti, sutra dvayam. So if we apply one first and then we want to apply the other, the first one will be asiddha. This is what the adhikara says. Now, what have we done here? We have initially applied chinoluk once. Okay, chinoluk belongs to the tadhikara 64104. Now we are trying to do Chinoluk again. We are trying to use the same sutra again. Okay? And we say Asiddhavad Atrabhat. So it is Asiddha. We say the first one is Asiddha. The first talopa is Asiddha. If it is Asiddha, there is a ta in between. And therefore, this ta is separated from the Chinanta. And therefore, it cannot be deleted. Now, how can a sutra be Asiddha to the same sutra? Svasya swayam asiddhatvam katham iti prashnaha. So tada ayameva chinolungnyayaha. That is what is referred to as chinolungnyaya. Lakshyabhedat lakshanabhedaha. We say lakshyabhedat. Where there is a lakshyabheda, a different lakshya, lakshanabheda. We think the sutra is also different. That is the chinoluk which deletes this ta is different from the chinoluk which tries to delete this ta. Lakshyabhedat lakshanabhedaha. So, when operating on different lakshyas, the sutras will also be treated as different. Okay, so there is Chinoluk 1, which deletes apachi ta, tapratyaya lope yaha Chinoluk iti sutra visheshaha prayuktaha saha bhinnaha, apachi taram ityatra yaha pravartayitu mishyate Chinoluk iti saha bhinnaha. Both of them belong to the same adhikara. I mean, their numbers cannot change. So, this is a kind of, it is a nyaya which we use for, we use it in other cases. So, the same sutra, even if it is the same sutra, lakshabhedat lakshanabhedaha iti ashritya, prathamam sutram, the first chinoluk is asiddha to the second one. Which means you cannot operate the second one. Because this ta is still there. Asiddha means, the lopa is, the ta which was deleted is still there. Apachi ta taram. Okay. Now, we do not have direct parakatva on apachi. Therefore, we cannot delete this second takara. Okay. So, this is chinolung nyaya. Lakshabhedat lakshanabhedaha. That is, even when operating on the same, even when it is the same sutra, if it is operating on two different lakshyas, we treat those two sutras as different. That is Chinolung Nyaya. How is it applicable here? What are we doing? Yatihi. Our question currently is, Yatihi. We applied Atolopaiticha once to delete the Akara here. Now, can we apply Atolopaiticha again to delete the Akara? Is the question. He says, no. Why? It is the same argument. Atolopaiticha iti, Abhiyadhikara asti. 6464 falls under the Abhiyadhikara. So there, again we treat this Atolopa Iticha is different from that which we have to apply here. Lakshyabheda, Lakshanabhedaha. So there are two Atolopa Iticha. So the first one is Asiddha. Asiddha Vadatrabhan ityanena Prathamasya Allopasya Asiddhatvam. If this Allopa is Asiddha, we have Ya, A. Okay, since that akara is there, we can no longer delete this a because there is no direct parakatva of the pratyaya. Pratyaya pare allopaha kriyate. This akara is directly followed by the akara pratyaya, yang, which is the nit pratyaya, therefore this can be deleted. To delete this, if there is an akara in between, then we cannot delete it. Asiddhatvat na bhavati. Nacha punaha alopaha chinchaha, chinolung nyayena, atolopasya asiddhatvat. Okay, so that is all he says. Prasakte, at present, atolopaiticha iti abhiyena sutrena. This belongs under that adhikara. Abhiyena sutrena adau alopaha krutaha. Punaha dvitiyasya akarasya tenaiva sutrena lope prapte, lakshabheda lakshanabheda mashritya. We think the two sutras as different. So, prathamasya atolopaiticha ityasya asiddhatvam uchyate. It is asiddha. And therefore, we cannot apply it again here. Ataha dvitiyavaram akarasya lopaha nabhavati. So, it is ya, ti will remain as it is and we cannot delete that akara. So, that is one way of preventing the alopa the second time. Athava luptasya akarasya sthanivadbhavena. We bring in the deleted akara by sthanivadbhava. Paranimittaha ajadeshaha. Nama akarasya loparupaha adeshaha. स्यात् पूर्वत्वेन दृष्टस्य आकारस्य लोपे कर्तव्ये तो तेन व्यवधानात् पुनः आकारलोपः न वी कैन ईदर से असिद्ध द लोप इज असिद्ध और वी कैन ब्रिंग बैक द आकार बै स्थानिवद् भाव ईदर वे द फर्स्ट आकार दट इज द आकार आफ्टर द फर्स्ट यकार विल नॉट बी डिलीटेड So there is a question. Okay, I'm happy that there is a question because we are at least trying to understand. Okay, but I don't understand the question. They would have to apply to the same nimitta. Which nimittam are you? Both karyas for the lopa. Yes, they have the same nimitta as the akara. The nimitta for both alopa is the akara, the yang, akara of yang. Atalopa itika says it will be deleted. The akara of a dhatu will be deleted when followed by a nit or kit pratyaya. So since it is a nit pratyaya, the alopa, the nimitta for both is the akara. Okay. So that akara can be brought by sthanivadbhava for both cases. Sthanivadbhavena akaram nimitti kritya alopaha kriyate. For the first akara, it is fine. We bring in the sthanivadbhava and delete it. So when we try to again delete the previous akara also by the same thing, the akara in between, it intervenes, separating the nimitta and the kari. Therefore, because of the vyavadhana, there is no lopa. Now how does it intervene? Either by being asiddha, either because the lopa is asiddha, or because even though it is deleted, it is brought back by sthanivadbhava. Is that clear or was the question different? Maybe I should unmute you so that you can ask. Is that what you had in mind?
It was hard for me to follow the mitam. So I think I understand enough for right now, and I'll take a look at it again.
Okay. Any other questions? So we've seen an example for padanta. Kani santi kaustah ityatra asu asudhatoho akarah luptah tasya sthanivadbhave sati yanadeshah avadesho vasyat sthanivadbhavah nishidhyate. So kani santi kaustah dvirvachana sudhyupasyah yanadeshasya sthanivadbhavena achitve dvitvam nasyat sthanivadbhavah nishidhyate atah dvitvam bhavati vare वरच प्रत्यये परे स्थानिवद्भावः नास्ति यायावरः सो यायाय इत्यत्र अकारः लुप्तः अतोलोपः इत्यनेन तस्य स्थानिवद्भावे आकारलोपः स्यात् अतोलोपेति च स्थानिवद्भाव निषेधात् आकारलोपः न भवति यलोप यातिः ओके या अगेन यंगन्त यायाय इत्यस्मात् तिच् प्रत्ययः तत्र यकारलोपे कर्तव्ये याय अकारलोपे कृते यकारलोपे कर्तव्ये यदि स्थानिवद्भावः अस्ति अकारस्य यदि स्थानिवद्भावः तर्हि यलोपः न स्यात् देयर कैनॉट बी यलोप सो यलोपे कर्तव्ये स्थानिवद्भावः नास्ति इत्युक्तत्वात् यलोपः भवति यलोप अकर्स ट्वाइस इन द प्रक्रिया इन बोथ केसेस देयर इज नो स्थानिवद्भाव ओके सो दैट इज वेयर वी आर शुड वी प्रोसीड और शुड वी स्टॉप हियर Has it been too heavy or can we look at, again it's a few more examples, Swara, Savarna, Anuswara, etc. So how many people are okay to go on? We'll have another 10 minutes of class. Probably we'll look at one or two more examples. So quite a few people say it's okay. So we'll see. The rest is not very difficult. Sware Chikir Shakaha. सनः अतोलोपः लिति इति ककार इकारस्य उदात्तत्वे कर्तव्ये न स्थानिवत् सो विल नॉट गो टू द फुल प्रक्रिया हियर वी हैव चिकीर्ष विच इज अ सन्नंत ओके सन् कर्तुमिच्छति चिकीर्षति ओके सो चिकीर्ष इति सन्नंतः तस्मात् नूल् प्रत्ययः क्रियते जस्ट लाइक यू हैव पचति इति पाचकः सो कर्तुम् इच्छति इति चिकीर्षकः इति भवति. सो चिकीर्ष इत्यस्मात् नुल् धृचौ इति नुल् प्रत्ययः. अत्र लोपः, द अकार इस् डिलीटेड् बै अतो लोपः. सो देन् द वो इस् रिप्लेस्ड् बै युवोर् अनाकौ. सो वी हाव् चिकीर्षक. नौ लिति इति सूत्रमस्ति, दिस् इस् अ स्वर सूत्र. लिति लित् प्रत्यये परे उदात्तं भवति, द स्वर विल् बि उदात्त. ओके, द स्वर विच् इस् इमीडियट्लि प्रिसीडिङ्ग् द प्रत्यय, दट् इस् वि. द व्यञ्जनस् डोण्ट् मेटर् वेन् एवर् वि आर् डूङ्ग् स्वराज्, इट् इस् ओन्ली द स्वर विच् मेटर्स्. सो दट् द फस्ट् स्वर दट् प्रिसीड्स् द लित् प्रत्यय विल् बि उदात्त. नौ वि हव् डिलीटेड् द अकार. नौ एक्चुलि चिकीर्षु अक इति स्थिते लिति इत्यनेन ईकारस्य उदात्तत्वं भवति. ओके, वाट् हेपन्स् इन् सिद्धान्त, वि हेव् चिकीर्षक, सो अक इस् लित्. सो द फस्ट् स्वर विच् प्रिसीड्स् इट्, विच् इस् गोयिङ्ग् बेक्वर्ड्स्, द फस्ट् स्वर विच् इस् ईकार विल् बि उदात्त बै लिति. ओके, दट् इस् सिद्धान्त. नौ इफ् यु ब्रिङ्ग् इन् द अकार बै स्थानिवद्भाव, लुप्तः अकारः यदि स्थानिवद्भावेन आश्रियते, then this ikara is not the first preceding swara. Okay, the swara which immediately precedes the pratyaya will have to be udatta. Now this ikara is not immediately preceding because there is an akara in between. Okay, so therefore it would not be udatta. Kakara akarasya sthanivadbhave tena vyavahitatvat kakarant parasya ikarasya liti iti udatta swara nasya. That is the problem. If we bring in the akara by sthanivadbhava, then this ikara would not be udatta. So svare kartavya sthanivadbhava nasti. So na padanta dvirvachana vare yalopa svara. Svare kartavya sthanivadbhava nasti. So there is no sthanivadbhava. Ikara will get udatta svara by liti. Savarna anusvara yoho shindhi. So swara, savarnanuswara, he gives a single example for both together. Shindhi, shishu dhatuhu, sorry there is a typing error, the dhatu has lost it, shishu dhatuhu, lot lakaraha, okay, it is lot, you have C, so we will quickly go through this. So there is different prakriya, C is replaced by he, then it is replaced by dhi. There is shnam, which is the vikarana pratyaya for the rudhadigana. This belongs to the Rudhadi. Rudhadi Jashnam ityanena na iti vikarana pratyaha. So it becomes shinashu. There is si which is replaced by he, which is replaced by dhi. Now, shnasorallopaha ityanena akaraha lupyate. The akara of this na is deleted by shnasorallopaha. So you have shinashu dhi. Okay, we'll start here for our prakriya. अकारस्य लोपे शिन् षु धि इत्यस्ति. नष्टापदान्तस्य झलि इत्यनेन अनुस्वारः क्रियते. अपदान्तस्य नकारस्य झलि परे, द शकार इस् झल्, देर्फोर् देर् इस् अनुस्वार. शिंषु धि ष्टुनाष्टुः इत्यनेन, सो नौ दिस् धकार इस् कन्वर्टेड् टु ढकार. ओके, बिकास् आफ् दिस् ष्टुनाष्टुः धकारस्य स्थाने ढकारः. झलां झष् झषि इत्यनेन षकारस्य डकारः. शिण्ड् धि अनुस्वारस्य यै परसवर्णः इत्यनेन अनुस्वारस्य परसवर्णे शिण्ड् धि. झरोझरि सवर्णे इत्यनेन लोपे शिण्ढि. सो देर् आर् टु फार्म्, शिण्ढि अण्ड् शिण्ढि. नौ अनुस्वारे सवर्ण अण्ड् अनुस्वार. सो अनुस्वार, वेन् यु आर् ट्रैङ्ग् टु डू दिस् अनुस्वार, कन्वर्ट् दिस् नकार टु अनुस्वार. If we bring in the akara by sthanivat bhava, yadi shnasor allopaha iti luptaha akaraha sthanivat, then this will not apply because it is not jhal. If the akara preceding the shakara, nashta padantasya jhali, jhal parakatvam nasti, ityataha anuswaraha nasyat. Okay. So anuswaray kartavya sthanivat bhava nasti, there is no sthanivat bhava. Again, when you are trying to do the parasavarna, anuswarasya yahi parasavarnaha kriyate. So anuswara is converted into a savarna of dakara, which is nakara. Okay, shindhi. Atrapi yadi akarasya sthanivadbhavaha. If the akara is brought in here, there is akara. Okay. Anuswarasya yayi parasavarnaha. Since akara is not yayi, we cannot have parasavarna. So in both cases, anuswaraye kartavye, parasavarne cha kartavye, sthanivadbhavaha nasti. So sthanivadbhava for akara is prevented. Savarna anuswara. So the key point here is the lopa of the akara. Shnam iti vikarana pratyayasya akaraha lupyate, tasya sthanivadbhavaha na bhavati. Anuswaraye kartavye api na bhavati, parasavarne kartavye api na bhavati. Dirghe pratidivna, pratidivan iti pratipadikam, pratiyaikavachane ta pratyaha. Okay, so there is a, pratidivan a. Allopanaha ityanena akarasya lopaha. Alt, anaha yaha akaraha, tasya lopaha bhasamyayam. So pratidiv n a. Halicha, so when there is vakara, repha vakarantasya dhatoho, halipare upadhayaha ikaha dirghaha. So because it is vakaranta, when followed by a hal, the ikara is converted to a dirgha, so it becomes pratidivna. So obvious, if we bring in the akara by sthanivadbhava, if there is an akara here, so haliparakatvam nasti. So it is not followed by hal, and therefore there would not have been dirgha. So luptasya akarasya sthanivadbhave, hal parakatva bhavat, dirghaha nasyat. So, napadanta dvirvachana vare yalopa swara savarnanuswara dirgha. Dirghe kartavya sthanivad bhavaha nasti. Ataha akaraha sthanivat nabhavati. So, all you have to do is to imagine the deleted akara in between and see what happens. Dash, dashi sadhishtame. So, there is the pratyaya prakriya which he himself gives. So, I will see here. Adu dhatuho, adabhakshane. Okay, to eat. Tasmat, ktin pratyaha, striyam ktin. Like you have kriti, mati, gati, bhakti. So, it is all ktin pratyaha. So, adu ti, ityasti. So, tasya ghasu ityadeshah kriyate. The dhatu is replaced by ghasu. Bahulam chandasi, iti sutrayana. Ghasu ti. Ghasi bhasor hali ityanena asya lopaha. So the akara of ghasu is deleted. So there is gh, su, ti. The sakara is deleted by jhalo jhali gh, ti. The takara is converted to dhakara by jhashastathor dhodaha gh, dhi. Now there is jastva. Jhalam jashthashi ityanena jashtvam kriyate gh, dhi. Jhalam ghakarasya. Jhashi pare, dhakare pare, jash nama gakaraha bhavati, gati. Now, while doing dhakara, under this jashtva, if we bring in the deleted akara, akarasya lopaha krataha, ghasi bhasor hali ityanena. Yadi luptaha akaraha sthanivad bhavati, karhi jhashi, jash parakatvam na bhavati. This gakara will not be followed directly by jash. There is an akara in between. So there will not be jashtva. Jashtvam nasyat. So, jashtve kartavye sthanivadbhava nasti. So, since there is no sthanivadbhava, we can do jashtva. Okay, there is gdhi. So, samana gdhihi, samanam bhojanam ityarthe, samanasya sa iti adeshaha. So, we have sagdhi is the form. Sagdhihi stri sahabhojanam ityamaraha. Sagdhi is a Vedic word for sahabhojana, where people eat together. Something like a party or where we invite people and we eat together is called sagdhi. Okay, it's a very old, ancient Vedic word. Sagdhi. So here, gakarasya, ghakarasya, jashtve kartavye, sthanivad bhavaha nasti. Okay. Yeah, it comes in chamaka. So, Yogeshji says it says in chamaka. And yes. So it is there. It is found quite often in the Vedas. Sagdhi. Okay. So, jashtve kartavye sthanivad bhavaha nasti. That is what. So, luptasya akarasya sthanivad bhave, jash parakatva bhavat, jashtvam nasya. So, jash, dirgha, jash, jashvidhau sthanivad bhava, nishedha. So, that is what he says. If you look at the mula, adanam gdhihi. So, gdhihi is just to eat. Ad dhatoho, adehe ktini, बहुलं छन्दसि इति घस्लादेशः, घसिभसोर्हलि इति उपधालोपः, झलो झलि इति सलोपः, धत्वं घस्य जष्ट्वम्. सो ही सिंपली गिवन ऑल द प्रक्रिया इन अ वाक्य. सहस्य सह इति सूत्रात् स इति अनुवर्तमाने समानस्य छन्दस्य मूर्धप्रभृत्युदर्केषु इति सूत्रेण सह. सो समाना गृधिः इत्युक्ते समान इत्यस्य स इति आदेशः. सो वी हैव सगृधि. चरि जक्षतुः, द लास्ट वन इज चर. स्वर सवर्णानुस्वार दीर्घ जश् चर विदिशु जक्षतुः अदभक्षणे. ओके, अगेन द सेम अद धातु, लिट् लकारे प्रथम पुरुष द्विवचने. सो देर इज अद अतुस्, घस्लादेशे द्वित्वादौ कृते. अगेन देर इज घस्ल एंड द आदेश एंड वी डू द्वित्व. यू हैव जघस अतुस्. ओके, आई एम स्किपिंग द इंटरमीडिएट प्रक्रिया. सो देर इज जघस एंड अतुस्. गमहन जनखन घसाम लोपः किनित्यनि घसाम इत्यस्ति, घसः अकारस्य लोपः भवति. सो जघ स अतुस्. नौ खरिच खरि परे सकारे परे घकारस्य चत्वम्. सो इट बिकम जक स अतुस्. सकारस्य आदेश प्रत्ययोः इति षत्वे जक्षतुस् जक्षतुः इति भवति. नौ चर्त्वे कर्तव्ये अकारः लुप्तः, तस्य स्थानिवद्भावे चर्त्वं न स्यात्. वी विल नॉट हैव चर्त्व बिकॉज इट इज नॉट डायरेक्टली फॉलोड बाय चर, सॉरी खर. खरि परे चर्त्वं विधीयते, अकारस्य स्थानिवद्भावे सति खर परकत्वं न स्यात्. सो देयरफॉर चर विधिषु चरि कर्तव्ये स्थानिवद्भावः नास्ति. सो वी कैन कन्वर्ट अघकार टू ककार. सो देयर इज स्थानिवद्भाव निषेध. न पदांत द्विर्वचन वरे यलोप स्वर सवर्णानुस्वार दीर्घ जश्चर विधिषु स्थानिवद्भावः निषिध्यते. नेक्स्ट इज संयोगान्तस्य लोपः. एनी क्वेश्चन्स? सो पदांत कानि सन्ति इत्यत्र अकारलोपस्य स्थानिवद्भावे यणादेशः स्यात्. सो तत्र स्थानिवद्भावः निषिध्यते. द्विर्वचनम् शुद्ध्युपास्यः, यणादेशस्य स्थानिवद्भावेन ईकारत्वे द्वित्वं न स्यात् अनचि इति उक्तत्वात्. सो स्थानिवद्भावः नास्ति, द्वित्वं भवति. वरे वरच् प्रत्यये परे यः अजादेशः तस्य स्थानिवद्भावः न. यायावर यायाय इति अतोलोपः इत्यनेन आकारस्य लोपे, पुनः आतोलोप इति च इत्यनेन याया इति आकारस्य लोपे कर्तव्ये स्थानिवद्भावः नास्ति. इफ देर वर स्थानिवद्भाव देर वुड हैव टू बी आकार लोप. यलोप याति यायाय इति अंगन्तात् क्तिच् प्रत्यये कृते, अतोलोपः इत्यनेन लोपे यकार लोपे कर्तव्ये स्थानिवद्भावः नास्ति. सो इफ देर स्थानिवद्भाव देर वुड नॉट हैव बी यलोप. स्वरे चिकीर्षकः, चिकीर्ष इति सन्नन्तात् नुल् प्रत्यये, अकारस्य लोपे कृते लिति इत्यनेन ईकारस्य उदात्तत्वं करणीयम्. यदि स्थानिवद्भावः तर्हि उदात्तः न भवति. सो स्थानिवद्भाव इज प्रिवेंटेड. सवर्ण अनुस्वार इज शिंढी, शिश धातोः लोट् मध्यम पुरुष एकवचने, शिनश इति श्नम् प्रत्ययस्य आकारः, तस्य श्नसोरल्लोपः इति लोपः. लोपस्य स्थानिवद्भावे नष्टापदान्तस्य झलि इति अनुस्वारः अपि न स्यात्, अनुस्वारस्य परसवर्णः इति परसवर्णोऽपि न स्यात्. सो उभयविधौ स्थानिवद्भावः नास्ति. दीर्घः प्रतिदीव्ना, प्रतिदिवन् इत्यस्मात् टा प्रत्यये अल्लोपो नः इति अकारस्य लोपः, तस्य स्थानिवद्भावे हलि च इति दीर्घः न स्यात्, अतः स्थानिवद्भाव निषेधः. जश् सग्भिः, घस धि घसि भसोर्हलि इत्यनेन अकारस्य लोपे घ स धि इत्यस्ति, तत्र घकारस्य जष्ट्वे कर्तव्ये स्थानिवद्भावः नास्ति. चरि जक्षतुः, जघस अतुस् अकारस्य गमहन जनखन घसाम लोपः. सो जघ स घकारस्य चर्त्वे कर्तव्ये स्थानिवद्भावः नास्ति. dakshatuhu. So we will stop here and we will continue in the next class. Any questions? Okay, so good. So Paul says, this is very straightforward and simple. Why did Bhattavaji Dikshita dwell on this? Because it's a totally, I mean, in the Siddhanta Kaumudi, there is nothing. I mean, you will not understand Napadanta if we go to Siddhanta Kaumudi. I mean, you just know that Vipretattavya Sanivadbhavaha Nasti. So, Sudhyupasyaha Ityatra. There he only deals with the Prasakta. That is, Sudhyupasyaha Ityatra Sanivadbhavaha Nasti Ityeva Uktam. Napadanta Sutrasya Purna Vivaranam Nasti. So, probably he just wanted to give an example for each of these to clarify the Sutra. Jayam Jayam Param Brahma Smaram Smaram Gurur Giraha Siddhanta Kaumudi Vyakhyam Kurma Praudhamanorama.